श्री शंकराचार्य भगवत्पादमूर्तये विपश्चित गीत पूर्णेन्दु किरण स्वच्छ कीर्तये निर्दोषाद्वैत लक्ष्मी वदन सरसी जोल्लास कर्मांशु माली भास्वद्वेदांत वाणी नयन युगल नीलोत्पलोन्मेष खेली धर्मद्रोह प्रसक्त प्रतिभट कटु वृक्षावली दाहकारी तेजस्त्रैधं दधानो जगति विजयते शंकरः सद्गुरुर्नः विद्यां केचन तत्त्वबोधमपरे बुद्धिं विशुद्धां परे वाग्मित्वं कतिचित् स्तुवन्ति भगवद्भक्तिं स्वधर्मं यतौ औदार्यं तु परे विरक्तिमपरे कारुण्यमन्ये तपः श्रीमच्छङ्करभारतीयतिपतौ स्त्यायन्ति सर्वे गुणाः परं शान्तमास्यं स्थिरं नेत्रयुग्मं करः साक्षमालः पुरःशिष्यवृन्दम् उरोभस्मलिप्तं वपुर्दिव्यशोभम् स्मितं चन्द्रिकास्मद्गुरोः शङ्करस्य भास्वत्रिवेणी सदृशी त्रिपुण्ड्री भाले गुरोः कौतुकमातनोति भस्मीकृतैषा गुरुणा गुणत्रयी तापत्रयी वा किमुपाश्रितानां ममता शमिता भवतापनुदा भवता नरता मम चापगता विदितोऽसि गुरो शिव एव भवान् चरणं शरणं करवाणि परम् गाङ्गेयवारिहरिदश्वकरानुरक्तं संस्पर्शनात्तनु विशोधनकारि दृष्टम् काषायधारि भवदीय वपुर्नराणां सन्दर्शनात्तु करणत्रयशुद्धिकारी सुखमरीचिकया ममतां यतो गुरुवचोऽमृतमेव पिपासतः अधिगतं तदहो त्वदुदीरितं समधुरं मधुरं मधुनाधुना विद्वज्जालतपःफलं कथितमाचार्यस्य भाष्यं पुरा विद्यारण्ययतीश्वरैः कविवरैः साधूक्तमेतद्वचः नो चेत्तादृशरम्यवाक्यसुभगं गम्भीरशास्त्रार्थगम् हृद्यं व्यासमुनेरभूदुपगतं विद्वद्भिरेतैः कथम् वेदान्तः काव्यमेतद्वयमपि गुणतोऽन्योन्यरोधीति बुद्धिम् धत्ते लोको गुरो त्वद्वचन मधुरता येन लीढा न जातु प्रत्यक्षा वैद्य सृष्टे मधुर गुण निकाले ह्यकल्पेथ भाष्ये न्यस्ता संसार रोग प्रशमिनि कृपया सात्वयाद्य क्वयातु ओजस्विनी क्वचिदुदीरित वस्तु वृत्या माधुर्यरञ्जित पदैः क्वचिदुद्गत श्रीः किञ्च प्रसाद गुणशाली सुवर्ण शुभ्रा वाणी गुरोस्त्रिपथगेव विभाति हृद्या वाचां काचित् प्रवहति झरी भक्तिनम्रास्तवेषु प्रौढा काचित् प्रखरवचसां खण्डने पण्डितानां सौम्या सम्यग्विनयनविधौ शिष्यवर्गस्य धन्या गङ्गा स्रोतः प्रहसनपटुः सद्गुरोः काचिदन्या प्रस्थानत्रयभाष्यमद्भुतमभूत् त्वत्तः समुद्रोपमम् यद्रत्नान्युपजीव्य पण्डितवरैरक्षोभ्य वैदुष्यकैः व्याख्यावार्तिकवृत्तिसिद्धिसहितान् निर्माय भूषागणान् श्रीमच्छङ्करदेशिकेन्द्ररुचिरान् श्रीशारदाभूषित वेदैः सूक्तैः पुराणैः स्मृतिभिरपि महायोगिनस्तेऽनुभूत्या युक्त्या जाग्रत्सुषुप्तिस्वपनकलितया रज्जुसर्पप्रपञ्चैः अध्यारोपापवादैर्गुरुवरगहनम् शुद्धमद्वैततत्त्वम् व्युत्पाद्यास्माकमार्तिम् शमयसि करुणासागरः कस्त्वदन्यः उपर्युपर्येत्य यदर्थतत्त्वम् जगद्गुरोर्धीर्भृशमालुलोके अतीत्य तद्वैदिकमन्यदीक्षितुम् सुधीर्न कश्चित् प्रभुरस्ति लोके स्तोत्रमिदं माल्यनिभं बद्धं निर्गन्धपदकुसुमैः पदयोरर्पितमेवम् हृद्यं ते भवतु भक्तिमात्रगुणम् विमलहृदयवासं मोक्षलक्ष्मीनिवासं शुभचरितविलासं मानवाकारभासं गुरुपरशिवमन्तश्चिन्तयन् सन्ति तीर्षुः कलयतु चिरमेतां वाङ्मयीं पुष्पमालां कलयतु चिरमेतां वाङ्मयीं पुष्पमालाम्।